एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। हुम्ला जनपदस्य मुख्यालयः सिमकोट स्थानम् ह्य राष्ट्रिय मार्ग सञ्जालेन सह सम्पृक्तम् वर्तते। राष्ट्रिय मार्ग सञ्जालेन सह संयोजयितुम् अवशिष्टस्य नेपालस्य एकमात्रस्य हुम्ला जनपदस्य सञ्जालेन सह योजनाय गत चैत्रस्य दशम दिवसात् कार्यम् प्रारब्धवत्या नेपाली सेनाया अस्थायी सेतोः निर्माण कार्यस्य समाप्ति अनन्तरम् ह्य प्रधानमन्त्री केपी शर्मा ओली उद्घाटनम् व्यददात्। कार्यक्रमे प्रधानमन्त्री ओली सिमकोट स्थानम् राष्ट्रिय मार्ग सञ्जालेन सहयोजयित्वा जनपदोऽयं त्रिदेशीय सम्बन्धस्य कृते सेतुः सम्पादितः सन्नपि निर्माणाधीन वज्रसेतोः निर्माण कार्याय नैरन्तर्यं प्रदाय न केवलं हुम्ला जनपदाय अपितु देशस्यैव समृद्धिर्यात्रायाम् अनेन कार्येण योगदानं प्रदास्यते इति अवोचत। प्रतिकूल वातावरणस्य कारणेन प्रधानमन्त्रिणा ओलिना सह मन्त्रिणः नेपाली सेनायाः सुर्खेतवर्तिनी उत्तर पश्चिम प्रेतना मुख्यालय आसन्न पञ्च घण्टा उषित्वा हुम्ला जनपदम् प्राप्य बेलीब्रिज अस्थायी सेतोः उद्घाटनम् विहितवान्। कर्णाली तटीय मार्गस्य निर्माणस्य प्रारम्भणस्य अष्टाविंशतेः वर्षाणाम् पश्चात् हुम्ला जनपदस्य सिमकोट मुख्यालयः औपचारिक रूपेण राष्ट्रिय मार्ग सञ्जाले सम्पृक्तो वर्तते। संसदीय समित्या विद्यालय शिक्षा विधेयके पञ्चदिनानाम् अभ्यन्तरे सहमतिम् धर्तुम् सर्वकारः निर्दिष्टो वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः शिक्षा स्वास्थ्य सूचना प्रविधि समितेः ह्यस्तनोपवेशे विधेयके पञ्चदिनानाम् अभ्यन्तरे सहमतिम् अन्वेष्टुम् शिक्षा विज्ञान प्रविधि मन्त्रालयः निर्दिष्टोऽस्ति इति समितेः सभापति अमर बहादुर थापा असूचयत। सभापति थापा सर्वकारेण समितेः सांसदानाम् विचाराणाम् च नश्रवणस्य प्रवृत्तिः दर्शितेति कारणेन एवं निर्दिष्टमस्तीति स्पष्टीकृतवान्। तत्पूर्वम् उपवेश्य शिक्षा विज्ञान प्रविधि मन्त्रिणा रघुजी पन्तेन विद्यालय शिक्षा विधेयके सहमतिम् अन्वेष्टुम् अतिरिक्तः समयः अभियाचितः आसीत्। शिक्षक महासंघेन सह वार्ता सञ्चलन्ती अस्ति इति उक्त्वा शिक्षा मन्त्री पन्त आषाढस्य गत षोडश दिवसात् समयः याचमानो वर्तते। संसदीय समित्या देशस्य विकासाय समृद्धये च सार्वजनिक वित्तस्य कुशलं व्यवस्थापनम् अपरिहार्यमस्तीति निष्कर्षः प्रकाशितो वर्तते। प्रतिनिधिसभायाः अन्तर्गतया सार्वजनिक लेखा समित्या ह्य काष्ठमण्डपे आयोजितायाम् कार्यशालायाम् विधि विपरीततया विहितस्य व्ययस्य नियन्त्रणम् एकः महत्वपूर्णः पक्षोऽस्तीत्यतः विधि विपरीततया विहितस्य व्ययस्य वर्धनम् राज्यकोषस्य असदुपयोगः एव न सार्वजनिक संस्था प्रति नागरिकाणाम् विश्वासे ह्रासस्य वर्धनम् अस्तीति निष्कर्षः प्रकाशितोऽस्ति। महालेखा परीक्षकस्य द्वाषष्टितमस्य वार्षिक प्रतिवेदनस्य अनुसारेण गतार्थिक वर्षम् यावत् सप्त खर्वाः त्रयस्त्रिंशद् अब्जानि एकोनविंशति कोटयश्च रूप्यकाणि विधि विपरीततया वितः व्ययोऽस्ति। कार्यशालायाम् सभामुखेन देवराज घिमिरे विधेन आर्थिक सुशासनस्य दृष्ट्या विधि विपरीततया विहितस्य व्ययस्य अंकवर्धनम् शोचनीयः विषयोऽस्तीति उक्तम् आसीत्। कार्यशालायाः उपसभामुख इन्दिरा राणा सार्वजनिक लेखा समिति सभापति ऋषिकेश पोखरेलः महालेखा परीक्षक तोयम राय च विचारान् व्यक्तवन्तः। उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः निगदति भूम्यावासविहीनावस्थायाः समस्यायाः स्थायी समाधानाय सर्वकारेण कार्यम् विधीयमानम् वर्तते। रूपन्देही जनपदस्य कञ्चन ग्रामपालिकायाः पञ्चमवडा क्षेत्रे अव्यवस्थित रूपेण निवसद्भ्य स्थानीयजनेभ्य भूमेः स्वामित्व प्राणपत्रस्य वितरणम् कुर्वाणः अर्थमन्त्री पौडेलः भूम्यावासविहीनानाम् भूमिहीनानाम् अव्यवस्थितरूपेण निवसताम् च जनानाम् समस्यायाः समाधानाय सर्वकारः प्रतिबद्धोऽस्तीति अवोचत। तदवसरे अर्थमन्त्रिणा पौडेलेन भूमि समस्या समाधान आयोगस्य केन्द्रीय अध्यक्षेण हरिप्रसाद रिजालेन च एकपञ्चाशदुत्तर शतचतुष्टयाय परिवारेभ्य भूस्वामित्व प्रमाणपत्रस्य वितरण विहितम् आसीत्। भोजपुरस्य रामप्रसाद राई ग्रामपालिकाया द्वितीयवडा क्षेत्रस्य धुदले खानीस्थाने एकस्यैव परिवारस्य चत्वारो जनाः मारिताः सन्ति। भोजपुर जनपद प्रहरी कार्यालयस्य अनुसारेण भोजपुर नगरपालिकाया द्वितीयवडा क्षेत्रस्य हेलौछा स्थान निवासिना राजेन्द्र राई इत्यनेन स्वस्य श्वशुर गृहे श्वशुर श्वश्रु श्रीमती श्यालकश्च घातिताः वर्तन्ते। प्रहरेण अनुसारेण अष्टाषष्टि वर्षीय श्वशुर बेलबहादुर गिरी, पञ्चचत्वारिंशत् वर्षीय श्वश्रु मञ्जु गिरी, पञ्चदश वर्षीया पत्नी मनिषा गिरी, नववर्षीय श्यालक शयन गिरीश्च मारिताः वर्तन्ते। हत्यायाः पश्चात् आत्मनापि क्षुर प्रहारेण आत्महत्यायाः प्रयासः विहितोस्तीति आशंका विहितास्ति। घटनायाः कारणं गृह विवादोऽस्तीति प्रारम्भिकानुमानं वर्तते। अतिरिक्तम् अनुसन्धानं जायमानमस्तीति प्रहरिणा ज्ञापितं च अस्ति। गृहमन्त्री रमेश लेखकः कथयति महाकाली नद्याः तटवर्तिनीः वसतिः संरक्षितुं विपुलवृष्टेः भवनात् पूर्वमेव तटबन्धनस्य कार्यस्य सम्पादनस्य दायित्वं नेपाली सेनायै प्रदत्तं वर्तते। कञ्चनपुरस्य भीमदत्त नगरपालिकायाः द्वादशवडा क्षेत्रे महाकाली नद्याः तटीय क्षेत्रे निर्माणाधीनस्य तटबन्धनस्य पूर्वेद्युः अनुगमनं कुर्वाणः गृहमन्त्री लेखकः जलविप्लवस्य कारणेन वर्षेभ्यः नद्याः तटीय क्षेत्रस्य नागरिकैः ऊढायाः समस्यायाः समाधानाय सर्वकारेण विशेषेण निर्णयं विधाय तत्कालं कार्यं कर्तुं सेनायै दायित्वं प्रदत्तमस्तीति असूचयत्। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री बद्री प्रसाद पाण्डे गदति त्रिभुवनान्तर्राष्ट्रिय विमानस्थलं व्यवस्थितं प्रभावकारी च विधातुं प्रयासो विधीयमानो वर्तते। प्रतिनिधिसभायाः अन्तर्गतायाः सम्बन्ध पर्यटन समितेः ह्य उपविष्टे उपवेशे मन्त्री पाण्डे विमानस्थलस्य सेवायाः सुधाराय कार्ययोजनापूर्वकं सर्वकारः अग्रे वर्धितोऽस्तीति अवोचत् इति समाचाराः।